गुरुब्रह्मा गुरुविष्णुगुरुदेवो महेश्वरः गुरुसाक्षात्परब्रह्म तस्मै श्रीगुरवे नमः। सर्वेभ्यो नमः। सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे। अस्माकं प्रवर्तमानः विषयः अस्ति तत्र रूपस्य व्याप्यवृत्तित्वम् अथवा अव्याप्यवृत्तित्वं, नाम तत्र रूपम् इति गुणः, तत्र वयं दृष्टवन्तः तत्र कपिसंयोगः, तत्र कपिः वृक्षस्य एकभागे अस्ति, तर्हि कपिसंयोगः तत्र वृक्षे अस्ति, अपि कपिसंयोगस्य अभावः अपि वृक्षे अस्ति, तर्हि तत्र कपिसंयोगः इति तत्र व्याप्यगुणः नास्ति इति वयं दृष्टवन्तः। तथैव रूपम् अपि अस्ति वा अथवा न इति प्रश्नः। तत्र मतद्वयम् अस्ति, तत्र व्याप्य अपि अव्याप्यवृत्तित्वम् इति, तस्य तत्र सम्यक् अवगमनार्थं वयं तत्र एतावत् करपत्रं पठितवन्तः। इदानीं तत्र अवगमनं जातम् इति कृत्वा इदानीं तत्र मूलप्रश्नः यः अस्ति तस्य उत्तरम् इदानीं पठामः। तर्हि अतः तत्र मूलप्रश्नः अस्ति, तत्र रूपस्य का गतिः, का स्थितिः इति। अस्तु, तर्हि तत्र अतः तत्र एतावत् पठितवन्तः, तत्र व्याप्यवृत्तित्वम् अव्याप्यवृत्तित्वम् एतावत् पठितवन्तः, इदानीं रूपस्य इति ततः पठामः तर्हि। अस्तु, तर्हि योगेन्द्रमहोदय आरम्भं करोति वा महोदय।
अस्तु, करोमि। रूपस्य अव्याप्यवृत्तित्वम् उत व्याप्यवृत्तित्वम्। एकस्मिन् मते रूपं व्याप्यवृत्ति, पुस्तके एकत्वम् इति संख्या इव। अपरस्मिन् मते रूपम् अव्याप्यवृत्ति, वृक्षे कपिसंयोगः इव। येषां मते रूपं व्याप्यवृत्तिः, तैः चित्ररूपम् इति नूतनं सप्तमं रूपं स्वीक्रियते। येषां मते रूपम् अव्याप्यवृत्तिः, तैः एकस्मिन् द्रव्ये श्वेतरूपं रक्तरूपं च बहूनि रूपाणि स्वीकर्तुं शक्यन्ते।
तावत्पर्यन्तं वदतु महोदय।
सो तत्र रूपं व्याप्यवृत्ति वृत्तित्वमस्ति वा अव्याप्यवृत्तित्वम् अस्ति, तत्र द्वे विधः मतं प्रवर्तते। यथा पुस्तकं, पुस्तके पुस्तकम् एकत्वम् एका संख्या अस्ति, तत्तु व्याप्यवृत्तित्वम् अस्ति। एवमेव रूपमपि व्याप्यत्वम् इति एकस्मिन् मते अस्ति, अपरस्मिन् मते अस्ति कपिसंयोगः इव। कपिसंयोगः अधोभागे वर्तते, मूलभागे न वर्तते इति, ये वृत्त्या अव्याप्यवृत्ति भवति। रूपस्य अपि एकस्मिन् स्थले वर्तते, अपरस्मिन् स्थले न वर्तते। परन्तु
तत्र संख्या एकत्व एकत्वम् इति संख्या इव, नाम तत्र एकं पुस्तकमस्ति चेत् तत्र एकं संख्या इति गुणः भवति, अग्रे द्रक्ष्यामः। तत्र संख्या नाम एकत्वम् इति तत्र संख्या, तत् एकमेव पुस्तकमस्ति चेत् तत्र संख्या किं, पुस्तकस्य एकभागे तिष्ठति वा? तत्र एकं पुस्तकम् इत्युक्ते तत्र एकत्वं सर्वत्र पुस्तके सर्वत्र भवति इति चिन्तनं तेषां,
व्याप्यवृत्तित्वम् अस्ति।
व्याप्यवृत्तित्वम् अस्ति, हा, उत्तमं महोदय। हा, अस्तु, अग्रे
अग्रे यथा वयं पठितवन्तः कपिसंयोगः इव अव्याप्यवृत्तित्वम् अस्ति। कपिसंयोग अग्रभागे अस्ति, उपरि भागे अस्ति, मूलभागे नास्ति इति रीत्या एव रूपम् अव्याप्यवृत्तिः अस्ति। परन्तु येषां मते व्याप्यवृत्तिः अस्ति, तैः चित्ररूपम् इति स्वीकृतमस्ति। अस्तु,
तत्र ये तत्र रूपं व्याप्यवृत्ति इति चिन्तयन्ति, ते तु चित्ररूपम् इति अस्ति इति तेषां चिन्तनम्।
अतः यदा रूपं रक्तरूपम् अस्ति, तदा एकस्मिन् पटे अस्ति तदा व्याप्यवृत्तिः भवति, परन्तु यदा मिश्रः अस्ति तत्र रक्त वा पीत इति न भवति, परन्तु चित्ररूपम् इति स्वीकरोति
ते स्वीकुर्वन्ति। समीचीनं महोदय। नाम तत्र एतत् अस्ति प्राचीनानां मतं, प्राचीनानां मतम् अस्ति तत्र चित्ररूपम् इति सप्तमं रूपम् अस्ति इति ते स्वीकुर्वन्ति, तेषां मतम् अस्ति तत्र रूपं व्याप्यवृत्ति इति। हा समीचीनं। हा अग्रे
येषां मते रूपम् अव्याप्यवृत्तिः अस्ति तैः एकस्मिन् द्रव्ये श्वेतरूपं रक्तरूपम् इति बहूनि रूपाणि स्वीकुर्वन्ति ते। अतः तत्र भिन्नभिन्नरूपाणि अपि भवितुम् अर्हति इति तेषां मतः अस्ति,
मतमस्ति। समीचीनं महोदय। तत्र यत्र अव्याप्यवृत्ति इति स्वीकुर्मः तत्र एकस्मिन् स्थले रक्तवर्णम्, अन्यस्मिन् स्थले श्वेतरूपम्, अतः बहूनि रूपाणि भवितुम् अर्हन्ति इति ते स्वीकुर्वन्ति। किन्तु प्रथमे मते तत्र केवलं तत्र एकं रूपमेव अस्ति, तत् तत्र श्वेतरूपं नाम तत्र षड्रूपसु तत्र रूपेषु नास्ति चेत्, षट्सु रूपेषु नास्ति चेत् तत्र अस्तु तत्र सप्तमरूपम् इति स्वीकुर्मः इति तेषां मतमस्ति। समीचीनं महोदय, धन्यवादः। उत्तममस्ति। अस्तु, इदानीम् अग्रे सरामः। तर्हि अग्रे तत्र राजी भगिनी अग्रे पठति वा?
महोदय अद्य अहं केवलं शृणोमि।
अस्तु अस्तु अस्तु, चिन्ता मास्तु भगिनि। अस्तु, तर्हि नीता भगिनी अग्रे पठति वा?
रूपं समवायसम्बन्धेन पटे, किन्तु कपिः संयोगसम्बन्धेन वृक्षे। अतः रूपस्य अव्याप्यवृत्तित्व साधनार्थं यः दृष्टान्तः दीयते तस्मिन् प्रकृतिदृष्टान्तयोः साम्यम् अस्ति किम्? उत्तरम्, अत्र कपेः उदाहरणे संयोगरूपगुणः स्वीकृतः न तु कपिः। संयोगरूपगुणस्य समवायसम्बन्धेन वृक्षे, अग्रदेश अवच्छेदेन च, मूलदेश अवच्छेदेन तु कपिसंयोगः नास्ति, मूलदेशे अन्यसंयोगः स्यात्, वायुः इत्यादिसंयोगः स्यात्, किन्तु कपिसंयोगः नास्ति। तर्हि समवायसम्बन्धेन चेत् अपि संयोगः एकस्मिन् अधिकरणे कुत्रचित् भवति, कुत्रचित् न भवति। अत्र प्रश्नः अस्ति, यथा रूपं पटे वर्तते ते समवायसम्बन्धेन वर्तते, पटे यत् रूपमस्ति तत् समवायसम्बन्धेन वर्तते, वृक्षे कपि अस्ति तत्र समवायसम्बन्धः नास्ति, तत्र वृक्षे कपि संयोगसम्बन्धेन वर्तते। अतः रूपस्य अव्याप्यवृत्तित्वसाधनार्थं यः दृष्टान्तः दीयते तस्मिन् प्रकृतिदृष्टान्तयोः साम्यम् अस्ति किम्
इति तावत् प्रश्नः।
इत्युक्ते रूपस्य अव्याप्यवृत्तित्वं साधनार्थं यः दृष्टान्तः दीयते तस्मिन् प्रकृतिदृष्टान्तयोः साम्यमस्ति किम्? अत्र प्रकृतिदृष्टान्तयोः इत्युक्ते किं महोदय?
प्रकृति नाम मूलविषयः, नाम मूलविषयः अस्ति तत्र रूपं, नाम प्रकृति नाम मूलविषयः,
मूलविषयः
दृष्टान्तः, दृष्टान्तः उदाहरणं, तयोः मध्ये साम्यं भवेत् खलु। यदि मूलविषयस्य मूलविषये किमपि वक्तुम् इच्छामः तदा दृष्टान्तः यदि दीयते अथवा उदाहरणं दीयते चेत् तयोः मध्ये साम्यं भवेत् खलु, नो चेत् तत्र उदाहरणस्य उपयोगः न भवति खलु, सम्यक् न भवति उपयोग, तत्र उदाहरणं सम्यक् न वा इति, सम्यक् उदाहरणं भवेत्, नो चेत् तत्र उदाहरणस्य उदाहरणेन तत्र एषा एव स्थितिः न इति न अवगन्तुं शक्नुमः। अतः अत्र प्रश्नः किम् अस्ति तत्र रूपम् इति तत्र द्रव्ये तत्र सम्बन्धः अस्ति समवायः खलु यतोहि गुणः अस्ति किन्तु तत्र दृष्टान्ते किं दत्तमस्ति वृक्षः अस्ति कपिः अस्ति तत्र अस्ति संयोगः
संयोगसम्बन्धः
अतः तत्र कथम् एतत् प्रश्नः अस्ति कथम् एतद् उदाहरणं भवति अस्य विषयस्य इति नाम अत्र किमस्ति गुणमस्ति गुणं द्रव्यसमवायसम्बन्धेन तिष्ठति अत्र द्रव्यमस्ति अन्यद्द्रव्यमस्ति तयोः मध्ये संयोगः सम्बन्धः अस्ति तर्हि कथं वा तत्र साम्यम् इति प्रश्नः खलु
अत्र उत्तरमस्ति यत् कपि वृक्षे कपि अस्ति तत् तस्मिन् उदाहरणे संयोगरूपगुणः स्वीकृतः न तु कपिः संयोगरूपगुणः स्वीकृतः न तु कपिः संयोगरूपगुणः च समवायसम्बन्धेन वृक्षे अग्रदेश अवच्छेदेन च संयोगरूप वृक्षस्य अग्रभागे कपि वर्तते तत्र अग्रदेशे अग्रभागे कपि वर्तते तत्र
किन्तु भगिनि सोपानेन गच्छामः तत्र एतस्य वाक्यस्य अर्थः प्रथमतया किञ्चित् वदतु तस्य विषये
वृक्षे कपि अस्ति तत् संयोगरूपगुणः स्वीकृतः न तु कपि
इत्युक्ते किं नाम यदि वदामः तत्र उदाहरणं एतत् उदाहरणम् अस्ति इति वदामश्चेत् तत्र उत्तरं किम् अस्ति एतत् उदाहरणं नास्ति तर्हि उदाहरणं किम् अस्ति तर्हि तत्र अत्र कपेः उदाहरणे किं स्वीकृतः
संयोगरूपगुणः स्वीकृतः
किं न स्वीकृतः
संयोगरूपगुणः स्वीकृतः समवाय
संयोगरूपगुणः स्वीकृतः
स्वीकृतः न तु कपिः
तर्हि किं न स्वीकृतः
कपिः न स्वीकृतः संयोगरूपगुणः
स्वीकृतः कपिः न स्वीकृतः नाम एतत् उदाहरणं नास्ति किन्तु उदाहरणे किम् अस्ति वृक्षः तु अस्ति वृक्षस्य उपरि कपिः इति चिन्तितवन्तः तत् नास्ति कपिसंयोगः इति नाम कपिसंयोगः इति संयोगगुणः संयोग इति गुणः अस्ति तत्र कपिसंयोगः वृक्षे अपि भवति अपि तत्र संयोगः नाम कपिवृक्षयोः मध्ये संयोगः खलु तर्हि संयोगः तत्र द्विनिष्ठः भवति तत्र संयोगः वृक्षे अपि अस्ति संयोगः कप तत्र कपौ अपि अस्ति यत् यः संयोगः कपौ अस्ति तस्य नामकरणं भवति वृक्षसंयोगः खलु यतोहि तत्र कपि वृक्षतयोः संयोगः अतः कपौ यः संयोगः अस्ति तस्य नामकरणम् अस्ति वृक्षसंयोगः वृक्षे यः संयोगः अस्ति सः अस्ति कपिसंयोगः अवगतं वा भगिनि नाम संयोगः अस्ति तत्र कपिः अपि वृक्षः तयोः संयोगः खलु तर्हि संयोगः इति गुणः तत्र किं भवति द्विनिष्ठः भवति नाम कपौ अपि अस्ति वृक्षे अपि अस्ति एषः संयोगः किन्तु यदा वयं कपिविषये वदामः यो नाम तत्र कपौ एषः कपिः तस्मिन् संयोगः वर्तते इति, किन्तु केन सह संयोगः इति वक्तव्यं खलु. तदा कपिः अस्ति, तस्मिन् संयोगः अस्ति, केन सह संयोगः? वृक्षेण सह. अतः नामकरणमस्ति वृक्षसंयोगः कपौ अस्ति. अवगतम्? वृक्षे संयोगः अस्ति, केन सह एषः संयोगः? कपिना सह. तर्हि कपिसंयोगः वृक्षे अस्ति. वृक्षे वृक्षसंयोगः इति न वदामः खलु. वृक्षे वृक्षसंयोगः अस्ति नाम तत्र द्वौ वृक्षौ स्तः, तदा एव तत्र वृक्षे वृक्षसंयोगः भवति. किन्तु अत्र कपिसंयोगः इति गुणः, संयोगः इति गुणः वृक्षे अस्ति. एतत् उदाहरणम् अस्ति. अस्मिन् उदाहरणे संयोगः इति कीदृशः पदार्थः?
गुण
गुणः अस्ति. केन सम्बन्धेन वृक्षे अस्ति? गुणः
रूपगुणः इति
गुणः अस्ति खलु.
गुणः
संयोगः इति गुणः अस्ति. गुणः द्रव्ये केन सम्बन्धेन तिष्ठति?
समवायसम्बन्धेन.
समवायसम्बन्धेन. तर्हि अत्र गुणः अस्ति, द्रव्यमस्ति, सम्बन्धः समवायः अस्ति. गुणः अस्ति, द्रव्यमस्ति, समवायसम्बन्धः अस्ति. तर्हि तयोः मध्ये साम्यम् अस्ति खलु. तर्हि इदानीं पूर्वं साम्यं नास्ति इति उक्तं प्रश्ने, किन्तु इदानीं साम्यम् अस्ति इति, यतोहि उदाहरणे कपिः इति तस्य महत्वं नास्ति, केवलं कपिसंयोगः सर्वत्र नास्ति इति एव खलु. अतः तत्र संयोगरूपगुणः नाम संयोगनामगुणः. कः गुणः? संयोगगुणः. तत्र रूपम् इति गुणः इति मास्तु. रूपम् इति गुणः भिन्नं, संयोगरूपगुणः नाम कः गुणः वर्तते? संयोगगुणः
वर्तते.
कुत्र? वृक्षे.
वृक्षे. पुनः एकवारं वदामि, तत्र संयोग इति गुणः स्वीकृत्य संयोगगुणः कपौ अपि वर्तते, संयोगगुणः वृक्षे अपि वर्तते. संयोगगुणः कपौ समवायसम्बन्धेन वर्तते, संयोगगुणः वृक्षे समवायसम्बन्धेन वर्तते. यत् संयोगगुणः कपौ समवायसम्बन्धेन वर्तते तत् वृक्षेण सह संयोगः एवमस्ति. यत् संयोगगुणः समवायसम्बन्धेन वृक्षे वर्तते तत् कपिना सह संयोग कपिसंयोगः एषः रूपेण वर्तते एवं.
नाम समीचीनं भगिनि. अतः एषः संयोगः एव उदाहरणे स्वीकृतः,
न तु कपि. संयोगगुणः एव स्वीकृतः.
अस्तु अग्रे.
संयोगरूपगुणश्च समवायसम्बन्धेन वृक्षे अग्रदेश अवच्छेदने अवच्छेदेन च. समवायसम्बन्धेन वृक्षे यत् संयोगगुणः वर्तते, संयोगगुणः वृक्षे समवायसम्बन्धेन वर्तते, तस्य अवच्छेदक अग्रदेशः. अग्रदेश अवच्छेदेन अग्रदेश अवच्छेदकरूपेण अस्ति. मूलदेश अवच्छेदेन तु कपिसंयोगः नास्ति. तत्र मूलदेशे कपिसंयोगस्य अभावः अस्ति, मूलदेश अवच्छेदेन तत्र कपिसंयोगः नास्ति. मूलदेशे अन्यसंयोगः स्यात्. तत्र मूलदेशे कपिसंयोगः नास्ति एव, तत्र मूलदेशस्य अवच्छेदककपिसंयोगः नास्ति, अन्यमूलदेशे अन्य कोऽपि संयोगः स्यात्. वायुः इत्यादि संयोगः स्यात्, किन्तु कपिसंयोगः मूलदेशे नास्ति. तर्हि समवायसम्बन्धेन चेत् अपि संयोगः एकस्मिन् अधिकरणे कुत्रचित् भवति, कुत्रचित् न भवति. तत्र वृक्ष अधिकरणे समवायसम्बन्धेन यत् कपि संयोगः वर्तते तत् कुत्रचित् भवति, एकस्मिन् स्थले भवति, एकस्मिन् स्थले न भवति इति दत्तमस्ति.
तर्हि तत्र अतः तत्र किं तत्र प्रश्नः नाम अतः रूपस्य अव्याप्यवृत्तित्वसाधनार्थं यः दृष्टान्तः दीयते तत्र साम्यम् अस्ति वा? एषः गुणः अस्ति खलु, कपिसंयोगः इति गुणः अस्ति, वृक्षे अस्ति, एषः गुणः तत्र तस्य अव्याप्यवृत्तित्वम् अस्ति वा अथवा व्याप्यवृत्तित्वम् अस्ति वा? वृत्तित्वम् अस्ति खलु. तर्हि तत्र रूपस्य अव्याप्यवृत्तित्वसाधनार्थं यत् यः दृष्टान्तः दीयते सः उचितः अस्ति खलु. तर्हि
उचितः अस्ति यदा संयोगरूपगुणः, यदा कपिः न स्वीकृत्य संयोगरूपगुणः वयं स्वीकुर्मः चेत् उचितः रूपेण दृष्टान्तः आगच्छति.
हा, अतः तत्र नाम कपेः तत्र महत्वं नास्ति, कपिसंयोगः एव तत्र दृष्टान्ते तत्र स्वीकर्तव्यं, तस्य स्वीकारः एव तत्र अपेक्षितः, तस्य स्वीकारः एव अपेक्षितः, न तु साक्षात् कपेः,
न तु साक्षात् कपेः
इति. तर्हि तत्र एतेन वयं दृष्टान्तः नाम रूपम् इति गुणः तत्र द्रव्ये तस्य अव्याप्यवृत्तित्वं भवति नाम एकस्मिन् देशे भवति अन्यस्मिन् देशे तस्य अभावः वर्तते इति प्रदर्शयितुम् एतत् उदाहरणं यदि स्वीकुर्मः तत् समीचीनमेव भवति. नाम तत्र अस्मिन् उदाहरणे अपि गुणः एकस्मिन् देशे अस्ति अन्यस्मिन् देशे नास्ति, तर्हि तत्र अव्याप्यवृत्तित्वगुणमेव उदाहरणत्वेन स्वीकृतः इति आगच्छति. समीचीनम्, अस्तु, धन्यवादः भगिनि. अस्तु, अग्रे अशोक महोदय अग्रे.
अस्तु महोदय, प्रथमं पूर्वप्रश्नस्य विषये चिन्तनं, वयं कपि इति उदाहरणं यदि कपि इति उदाहरणं दत्तं तदपि उचितमेव इति अहं चिन्तयामि. यतोहि उदाहरणे सर्वधर्माः सामान्यम् इति न आवश्यकं खलु. मुख्यधर्मः एव यदि सामान्यं
सत्यं सत्यं महोदय, सत्यं, तदपि तदपि समीचीनमेव. किन्तु यदि तत्र कोऽपि वदति अस्तु अस्तु एतदहं न इच्छामि यतोहि तत्र द्रव्यम् अत्र गुणः अस्ति, उदाहरणे द्रव्यमस्ति, अत्र समयः इति सम्बन्धः अस्ति, तत्र संयोगः इति सम्बन्धः अस्ति इति यदि वदन्ति अस्तु तर्हि तत्र एतत् अस्मिन् उदाहरणे एतया रीत्या चिन्तयतु तर्हि उदाहरणं समीचीनं भवति इति उक्तं तावदेव.
अस्तु महोदय,
नाम समाधानं दातुं यदि प्रथमविद्या समाधानं न प्राप्तम् अस्तु द्वितीयविद्या चिन्तयतु इति तावदेव.
अस्तु महोदय,
नाम एतादृशं तत्र किमस्ति उत्तरं प्रश्नः उत्तरं तेन तत्र सर्वेषां समाधानं भवेत् इति चिन्तनं तावदेव.
अस्तु महोदय, प्राचीनानां मतानुसारं रूपं किन्तु तथा नास्ति. एकत्र श्वेतरूपम् अन्यत्र रक्तरूपम् इति चेत् एकत्र विद्यमानश्वेतरूपम् अन्यत्र रक्तरूपम् अनेन श्वेतरूपम् एकस्मिन् अधिकरणे कुत्रचित् भवति कुत्रचित् न भवति इति अव्याप्यवृत्तिः जाता. प्राचीनाः वदन्ति यत् तथा न भवति यतोहि रूपं व्याप्तवृत्तिः गुणः. समाधानं चित्तरूपम् एकस्मिन् पटे सर्वत्र एक एव रूपम् न श्वेतरूपम् नापि रक्तरूपम् चित्तरूपम् तस्मिन् पटे सर्वत्र अपि वर्तते अनेन अव्याप्यवृत्तित्वं न भवति नवीन नैयायिकाः चिन्तयन्ति यत् रूपम् अव्याप्यवृत्ति इति अतः कपिसंयोग दृष्टान्त समानः अस्ति इति प्राचीननैयायिकाः तत् न अङ्गीकुर्वन्ति ते वदन्ति यदि श्वेतरूपम् अस्ति पटे अन्यत्र रक्तरूपम् अस्ति श्वेतरूपम् एकस्मिन् अधिकरणे भवति रक्तरूपम् अन्यत्र अधिकरणे भवति इति न एकरूपमेव अस्ति अन्यरूपं चित्ररूपम् इति तत् चित्ररूपमेव सर्वत्र पटे अस्ति यतोहि रूपं व्याप्यवृत्ति अतः एकः एव रूपं सर्वत्र अस्ति अतः चित्ररूपम् इति अन्यरूपं स्वीकुर्वन्ति
समीचीनं महोदय नाम तत्र यदि तत्र एकस्मिन् देशे तत्र श्वेतरूपम् अस्ति अन्यस्मिन् देशे तत्र रक्तरूपम् अस्ति चेत् तत्र किं भवति श्वेतरूपम् एकस्मिन् स्थले अस्ति अपि अन्यस्मिन् स्थले श्वेतरूपं नास्ति यतोहि तत्र रक्तरूपम् अस्ति तर्हि तत्र श्वेतरूपमपि भवति श्वेतरूपस्य अभावः अपि भवति एकस्मिन् अधिकरणे तर्हि अव्याप्य वृत्तिः भवति श्वेतरूपस्य रक्तरूपस्य अपि तथैव भवति इति कृत्वा यदि वयं चिन्तयामः तत्र व्याप्यवृत्तिः गुणः एव अस्ति रूपम् इति यदि चिन्तयामः तर्हि तत्र श्वेतरूपम् अस्ति इति न अङ्गीकर्तुं शक्नुमः रक्तरूपम् अस्ति इति अपि न अङ्गीकर्तुं शक्नुमः तर्हि समाधानम् अस्ति चित्ररूपम् इति नूतनरूपं तद् श्वेतरूपमपि नास्ति रक्तरूपमपि नास्ति अतः तत्र ते वदन्ति तत्र चित्ररूपं सर्वत्र भवति अतः अव्याप्य वृत्तित्वं स्वीकरणीयं नास्ति इति तेषां मतं समीचीनं महोदय अस्तु अस्तु धन्यवादः महोदय अस्तु अग्रे इदानीं तर्हि तत्र नरसिंह हेग्डे महोदय अग्रे पठति वा
आं महोदय नव्यानां मतानुसारं पटस्य प्रसङ्गे रूपस्य अवच्छेदकं पीततन्तुः रक्ततन्तुः नीलतन्तुः यथा कपिसंयोगस्य अवच्छेदकम् अग्रदेशः अतः पटे चित्ररूपं मास्तु अवयवरूपं तत्र भासते एव नानातन्तवः सन्ति तन्तवः च भिन्नभिन्न वर्णयुक्ताः अनेन तन्तुभ्यः भिन्नं पटे पृथक् रूपं नोपद्यते न उत्पद्यते न वा अपेक्षते तन्तुषु विद्यमानं रूपमेव पटे भासते नवीनानां मतानुसारं तत्र पट्टस्य प्रसङ्गे रूपस्य अवच्छेदकं पीततन्तु भवितुम् अर्हति रक्ततन्तु भवितुम् अर्हति नीलतन्तु भवितुम् अर्हति यथा तत्र कपि अग्रदेशे वर्तते इति कृत्वा तत्र अग्रदेश अवच्छेदकं भवति अतः पटे एकमेव रूपं चित्ररूपम् इति मास्तु भिन्नभिन्नरूपं स्वीकर्तुं शक्नुमः पृथक् पृथक् अवच्छेदकेन इति नवीनानां मतं पटे चित्ररूपं मास्तु अवयवरूपं तत्र भासते एव अवयवरूपम् इत्युक्ते पीतरूपं रक्तरूपं तादृशरूपं तत्र भिन्नभिन्नरूपः तन्तव सन्ति रूपाणि भिन्नभिन्नाः सन्ति तन्तव च भिन्नभिन्नवर्णयुक्तः एकं नीलरूपम् एकं पीतरूपम् एकं रक्तरूपम् इति अनेन तन्तुभ्यः भिन्नं पटे पृथक् रूपं न उत्पद्यते न वा अपेक्षते. तत्र तन्तवः भिन्नभिन्नरूपाणि सन्ति तत्र तन्तवः मध्ये, परन्तु पट कथम् एकं भिन्नरूपं भवति इति तत् न अपेक्षितमस्ति, न सम्भवमपि अस्ति इति नवीनानां मतं महोदय. तन्तुमध्ये रूपं विद्यमानमस्ति, तदेव पटमध्ये अपि विद्यमानं भवति
इति तेषां मतम्. अतः तत्र ते वदन्ति चित्ररूपस्य आवश्यकता नास्ति, षड् रूपाणि पर्याप्तं, तस्य अधिकं नूतन नाम तत्र सारल्यं नाम तत्र लाघवं, यत् स्वीकरणीयं केवलं तदेव स्वीकुर्मः खलु, यस्य आवश्यकता नास्ति तद् मास्तु
मास्तु.
अतः तत्र षट् रूपाणि सन्ति चेत् तस्य समाधानं भवति, किमर्थं नूतनरूपम् इति तेषां मतम्. अस्तु समीचीनं महोदय, धन्यवादः. अस्तु अग्रे तत्र ओ शुभभगिनी नमस्कारः,
नमस्ते महोदय,
नमस्कारः. तर्हि तत्र अग्रे किं तत्र चन्द्रमती भगिनी अग्रे पठति वा?
आं महोदय. प्राचीनाः किम् उत्तरं ददाति, तदारभ्य एव.
सत्यं सत्यं भगिनि.
चक्षुरिन्द्रिय प्रश्न प्रत्यक्षं प्रतिरूपं कारणं, रूपं नास्ति चेत् तस्य द्रव्यस्य चक्षु प्रत्यक्षं न भवति.
चाक्षुषप्रत्यक्षं
न भवति. अत्र कार्यकारणभावः प्रयुक्तः इति यदि पटे रूपं नास्ति तन्तुषु एव रूपं वर्तते इति यदि वदन्ति तर्हि पटे समवायसम्बन्धेन रूपं नास्ति इति उक्तौ. पटस्य प्रत्यक्षमेव न स्यात्, अतः चित्ररूपम् अङ्गीकर्तव्यम्, अनेन तन्तुषु रूपं भवति, तदा भिन्नभिन्न तन्तूनां संयोगात् पटे चित्ररूपम् उत्पन्नं, भिन्नभिन्नवर्णयुक्ततन्तूनां संयोगात् पटे चित्ररूपम् उत्पन्नं, तथा च पटे रूपमस्ति समवायसम्बन्धेन, अनेन पटस्य प्रत्यक्षं भवति. प्राचीनाः इदानीं किम् उत्तरं ददाति इति वयं पश्यामः. चक्षुरिन्द्रियप्रत्यक्षं प्रति रूपं, चक्षुरिन्द्रियप्रत्यक्षमेव रूपस्य कारणम् इति प्राचीनाः. चक्षुरिन्द्रियप्रत्यक्षं प्रति रूपं कारणम् इति कारणं, चक्षुरिन्द्रियप्रत्यक्षं प्रति रूपं कारणं, रूपं कारणं
कार्यं किम् अस्ति?
चक्षुरिन्द्रियप्रत्यक्षम्
इत्युक्ते किं? चक्षुरिन्द्रियप्रत्यक्षम् इत्युक्ते किम्?
अत्र वर्णं किमिति वयं पश्यामः,
न न न सत्यं सत्यं, किन्तु नाम प्रत्यक्षं नाम ज्ञानं खलु, नाम एतत् ज्ञानं केन तत्र प्रत्यक्षं नाम इन्द्रियेण प्राप्तं ज्ञानं खलु,
अनुमानज्ञानं
नास्ति, प्रत्यक्षज्ञानं नाम इन्द्रियेण प्राप्तं ज्ञानं. केन इन्द्रियेण प्राप्तं ज्ञानम् अथवा केन इन्द्रियेण
ज्ञानम् अस्ति?
चक्षुरिन्द्रियेण जन्यं यद् ज्ञानम् अस्ति तद् प्रत्यक्षज्ञानं, तद् कदा भवति? यदि तत्र किमपि द्रव्यमस्ति, तत्र द्रव्यरूपमस्ति चेत् तदा एव तत्र वयं तत्र द्रष्टुं शक्नुमः खलु. द्रव्यरूपं नास्ति चेत् तत्र अस्माकं तत्र प्रत्यक्षज्ञानं न भवति खलु. अतः ते वदन्ति तत्र यदि तत्र
कारणमिति
कारणम् अस्ति रूपं तु कारणम् अस्ति चक्षुरिन्द्रियप्रत्यक्षं प्रति अतः तत्र यदि ज्ञानं भवति तत्र ज्ञानं यदा भवति तत्र रूपमपि स्यात् द्रव्ये तदा एव तत्र द्रव्यस्य ज्ञानं भवति अतः रूपमपि कारणम् अग्रे
रूपं नास्ति चेत् तस्य द्रव्यस्य चक्षुप्रत्यक्षं न भवति रूपं नास्ति चेत् तादृशद्रव्यस्य ज्ञानं चक्षुषा न भवति
न भवति समीचीनं
तत्र कार्यकारणभावः प्रयुक्तः एकं कारणम् अस्ति कार्यम् अस्ति अतः कार्यमपि अस्ति कारणमपि कारणमस्ति कार्यमपि अस्ति अत्र रूपमिति रूपमिति
यत्र कार्यकारणभावः अस्ति तत्र कारणं नास्ति चेत् कार्यं न
भवति तत्र रूपमिति कारणमस्ति अतः द्रव्यम् अस्ति इति ज्ञानमपि चक्षुषा वयं प्राप्यते
समीचीनम्
इति यदि पटे रूपं नास्ति तन्तुषु एव रूपं वर्तते इति यदि वदन्ति तर्हि पटे समवायसम्बन्धेन रूपं नास्ति इति उक्तौ पटस्य प्रत्यक्षमेव न स्यात् अत्र पटे किमपि रूपं नास्ति इति वदति चेत् तन्तुष ते वद तादृश न मतमस्ति तन्तुषु एव रूपं पटे रूपं नास्ति इति तादृशं वदन्ति चेत् पटे समवायसम्बन्धेन पटे रूपं नास्ति इति उक्तौ अत्र तन्तुषु एव रूपं पटे किमपि
तन्तवः सन्ति तत्र तन्तुषु तन्तुषु रूपमस्ति किन्तु पटे रूपं चेत् तत्र
प्रत्यक्षमेव न
तदा किं भवति रूपम् इति
पटस्य प्रत्यक्षं ज्ञानं न भवति
हा तदा अपि तत्र किं भवति तन्तवः सन्ति अत्र तन्तुषु वर्तते पटस्य अधिकरणं किम् अस्ति
तन्तुषु किम् अस्ति तदेव
न न पटस्य पटः अवयवी अस्ति वा
पटः अवयवी अस्ति अत्र तन्तुः भवति
तन्तवः अवयवाः खलु तत्र अवयवी अवयवे अस्ति खलु नाम अवयवाः एव तत्र अधिकरणं भवन्ति खलु अवयवे अस्ति इति कृत्वा पटः अपि तत्र समवायसम्बन्धेन तन्तुषु वर्तते खलु
अस्तु
तर्हि रूपमपि तन्तुषु वर्तते पटः अपि तन्तुषु वर्तते रूपमपि पटः तयोः समानाधिकरणं भवति खलु समान अधिकरणं भवति तर्हि तत्र नवीनानां मतानुसारं तत्र पटे रूपं नास्ति किन्तु पटः अपि रूपं द्वयोः अपि द्वौ अपि तत्र तन्तुषु वर्तते इति ते वदन्ति खलु रूपं नास्ति इति यदि भवति तत्र समस्या का तर्हि
पटस्य प्रत्यक्षज्ञानम् एव न भवति इति प्राचीनानां तादृशं चिन्तयति
नाम प्राचीनाः वदन्ति अस्तु नाम रूपं तु कारणमिति भवन्तः अपि स्वीकुर्वन्ति खलु नाम यदि रूपं नास्ति चेत् ज्ञानं न भवति प्रत्यक्षज्ञानं न भवति किन्तु भवन्तः वदन्ति तत्र पटे रूपं नास्ति केवलं तन्तुषु वर्तते तर्हि पटस्य प्रत्यक्षज्ञानं कथं वा स्यात् अतः
अतः चित्ररूपम् अङ्गीकर्तव्यं प्राचीनानां मध्ये मतं वदति चित्ररूपं पटे वर्तते इति अङ्गीकर्तव्यम् इति
यतोहि तत्र श्वेतरूपम् एतत् सर्वं न अङ्गीकर्तुं
तन्तुषु भिन्नभिन्नरूपं वर्तते चेदपि पटे चित्ररूपं वर्तते इति
पटे पटे किमपि रूपं स्यात् तत्र पटे रूपमेव नास्ति इति वदामश्चेत् पटस्य प्रत्यक्षं न भवति तन्तूनां प्रत्यक्षं भवति किन्तु पटस्य प्रत्यक्षं न भवति इति ते वदन्ति अतः तत्र पटे किमपि रूपं भवेत् किन्तु तत्र श्वेतरूपं नास्ति रक्तरूपं नास्ति अतः नूतनरूपं नाम चित्ररूपं सप्तमरूपं स्वीकर्तव्यम् अङ्गीकर्तव्यम् इति ते वदन्ति हा अग्रे
तन्दुषु रूपं भवति तदा भिन्नभिन्न तन्तूनां संयोगात् पठ्यचित्ररूपम् उत्पन्नम् इति प्राचीनानां मद तन्दुषु भिन्नभिन्नरूपं वर्तते किन्तु अत्र पटे एकरूपं तद् चित्ररूपम् इति
यद्यपि हा समीचीनं
उत्पन्नं भवति इति नूतनं
समीचीनं हा संयोगात् नूतनरूपं
भिन्नभिन्नवर्णयुक्त तन्तूनां संयोगात् पटे चित्ररूपम् उत्पन्नं अत्र अवगतमेव तथा च पटे रूपमस्ति समवायसम्बन्धेन अतः पटे रूपं समवायसम्बन्धेन वर्तते भिन्नभिन्नतन्तु रक्तवर्णं श्वेतवर्णं तत्र भिन्नरूपाणि सन्ति तद् समवायसम्बन्धेन पटे वर्तते एकं रूपं चित्ररूपम् इति एकं नूतनरूपम् उत्पन्नं कृत्वा अत्र समवायसम्बन्धेन पटे तन्तुः वर्तते इति प्राचीनानां मतम् अनेन पटस्य प्रत्यक्षं भवति तत्कारणेन एव पटस्य प्रत्यक्षज्ञानं भवति नास्ति चेत् पटस्य प्रत्यक्षज्ञानं चक्षुषा न भवति एकं रूपं न स्वीकरोति चेत्
इति ते वदन्ति हा इति अस्ति समीचीनं भगिनि हा धन्यवादः अस्तु हा उत्तमम् अस्तु अग्रे तत्र सोमभगिनी अग्रे पठितुम् इच्छति वा
आं महोदय पठामि किन्तु नव्यानाम् अनेन न कोऽपि दोषः चाक्षुषं प्रति रूपं कारणं नव्यानां मते श्वेतरूपमपि अस्ति नीलरूपमपि अस्ति बहूनि रूपाणि सन्ति पटे तत्तत् अवयवैः तत्तद् रूपम् उत्पद्यते पटे इति स्वीक्रियते चेदपि पटे रूपं सिद्ध्यति यथा कपिसंयोगः वृक्षस्य अग्रभागे सत्यपि सम्पूर्णवृक्षेऽपि वर्तते तथा एव रक्तवर्णयुक्ततन्तुभिः पटे रक्तरूपं जायते एवमेव श्वेतरूपयुक्त अवयवैः पटे श्वेतरूपं जायते अत्र समवायसम्बन्धेन न केवलं रूपमस्ति अपि तु रूपाणि सन्ति अत्र मुख्यमस्ति यत् प्राचीनाः रूपस्य व्याप्यवृत्तित्वं मनसि कृत्वा चित्ररूपम् अङ्गीकृतवन्तः नव्यैः तु यथा संयोगस्य अव्याप्यवृत्तित्वं भवति तथा रूपस्य अपि अव्याप्यवृत्तित्वं भवतु न कोऽपि हानिः इति हा न कोऽपि हानिः इति कापि क्षम्यतां न कापि हानिः इति चित्ररूपम् अनङ्गीकृत्य भिन्नभिन्नरूपाणि भवन्ति इति अङ्गीकृतवन्तः अनेन नूतनचित्ररूपं न अपेक्षितम् इति परि अवसितम् अस्तु तर्हि प्राचीनानां मतमस्ति तत्र इदानीं दृष्टवन्तः चक्षुरिन्द्रियप्रत्यक्षं प्रति रूपं कारणम् इति अपि च तत्र किं तन्तुषु एव रूपं वर्तते चेत् तत्र पटस्य प्रत्यक्षम् एव न भवति इति उक्तम् अतः चित्ररूपम् अङ्गीकर्तव्यम् इति तैः उक्तमपि अपि च तत्र तन्तुषु रूपं भवति चेदपि पटे अपि चित्र यतोहि तत्र तन्तवः समवायसम्बन्धेन पटे वर्तन्ते इति कृत्वा पटे अपि तत् रूपं भवेत् एव इति.
नाम तत्र प्राचीनाः तत्र आक्षेपः कुर्वन्ति खलु, आक्षेपं कुर्वन्ति. हा नाम तत्र यदि केवलं तन्तुषु तत्र रूपम् अस्ति चेत् तत्र पटे नास्ति इति भवति, तदा पटस्य प्रत्यक्षं
प्रत्यक्षमेव न भवति इति
न भवति इति तत्र तेषाम् आक्षेपः
आक्षेपः अस्ति. यतोहि तत्र नव्य नैयायिकाः वदन्ति रूपं तु तन्तुषु एव न तु पटे इति वदन्ति इति कृत्वा तर्हि तत्र समस्या उत्पद्यते.
समस्या अस्ति
इति
ते वदन्ति. इदानीं
ते वदन्ति
किं कुर्वन्ति
किन्तु नव्यानां ते वदन्ति अनेन दोषः कोऽपि दोषः तु न भवति नास्ति.
किमर्थं
चाक्षुषं प्रति रूपं कारणम्
इति ते अपि अङ्गीकुर्वन्ति.
ते अपि अङ्गीकुर्वन्ति तदेव उक्तं प्राचीनैः अपि. ते वदन्ति
वयमपि स्वीकुर्मः, वयमपि
अङ्गीकुर्मः इति
अपि च
रूपमेव कारणम् इति. यतोहि तत्र ते तेषां मतमस्ति श्वेतरूपमपि अस्ति नीलरूपमपि अस्ति तत्र पटे बहूनि रूपाणि भवितुम् अर्हन्ति अतः तत्तत् अवयवैः इति इत्युक्ते तत्र तन्तवः अवयवरूपेण भवन्ति तत्तत् अवयवैः तत्तत् रूपम् उत्पद्यते पटे इति वयं स्वीकुर्मः चेदपि पटे रूपं सिद्ध्यति इति. यतोहि तत्र कपिसंयोगस्य उदाहरणं स्वीकृत्य इदानीं वदन्ति ते कपिसंयोगः वृक्षस्य अधो अग्रभागे इति दृष्टवन्तः. तादृशम् अस्ति चेदपि सम्पूर्णवृक्षे अपि वर्तते यतोहि ते मन्यन्ते यत् तत्र व्याप्य वृत्तित्वं
तत्र कपिसंयोगः तत्र वृक्षे अग्रदेशे अस्ति. अस्तु
चेदपि
वृक्षे अस्ति खलु इति ते वदन्ति.
वृक्षे अस्ति
खलु, वृक्षे अस्ति कपिसंयोगः, वृक्षे अस्ति, वृक्षस्य एकभागे अवच्छेदन अस्ति सत्यं, किन्तु वृक्षे अस्ति,
वृक्षे अस्ति एव इति. तथा एव तत्र पटे अपि भवति एकत्र एकं रूप किं वर्णः अस्ति अन्यत्र अन्यवर्णः अस्ति चेदपि तयोः अधिकरणं तु पटमेव पटः एव इति तेषां चिन्तनम्. अतः तत्र एवमेव श्वेतरूपयुक्त अवयवः अस्ति चेत् पटः श्वेतरूपयुक्तः भवति, श्वेतरूपं जायते इति उक्तं. तत्र अत्र समवायसम्बन्धेन न केवलं रूपम् अस्ति अपि तु रूपाणि सन्ति इति. इत्युक्ते तत्र केवलम् एकं रूपं न भवति समवायसम्बन्धेन, यानि रूपाणि यानि अपि तु रूपाणि सन्ति इति. तत्र इत्युक्ते तत्र भिन्नभिन्न वर्णानां रूपाणि सन्ति इति ते वदन्ति तत्र इति मन्ये.
यतोहि तत्र यत्यत् यानि रूपाणि तन्तुषु नाम अवयवेषु वर्तन्ते ते सर्वे
तानि सर्वाणि रूपाणि
अवयवन्ति अवयविनी अपि वर्तन्ते
इति. न तु केवलम् अवयवेषु इति. तर्हि अत्र मुख्यमस्ति यत् अस्माकं कृते इदानीम् अत्र मुख्यमस्ति प्राचीनाः रूपस्य व्याप्यवृत्तित्वं मनसि कृत्वा चित्ररूपम् अङ्गीकृतवन्तः इति. यतोहि तत्र पूर्वं पठितवन्तः नव्यनैयायिकाः व्याप्यवृत्तित्वं न अङ्गीकुर्वन्ति इति. तत्र कपिसंयोगस्य उदाहरणं स्वीकृत्य सर्वत्र तस्य संयोगः नास्ति इति. किन्तु प्राचीनाः तु व्याप्यवृत्तित्वम् इति एव अङ्गीकुर्वन्ति तत्रापि.
हा, रूपस्य व्याप्यवृत्तित्वम् अस्ति, नाम
रूप अस्ति इति,
वर्तते द्रव्ये
सर्वत्र वर्तते इति. अतः ते तु चित्ररूपम् इति अङ्गीकृतवन्तः. यतोहि तत्र ते भिन्नभिन्नरूपाणि भवन्ति इति न अङ्गीकुर्वन्ति. सर्वे मिलित्वा चित्ररूपं
किमर्थं भिन्नभिन्नरूपाणि सन्ति इति ते न अङ्गीकुर्वन्ति?
यतोहि तत्र व्याप्यवृत्तिः भवति इति ते
नाम
अङ्गीकुर्वन्ति.
तत्र श्वेतरूपमपि अस्ति, नीलरूपम् अस्ति चेत् तत्र श्वेतरूपं व्याप्यवृत्ति
भवति
न वक्तुं शक्नुमः. तस्य व्याप्यवृत्तित्वम् अस्ति इति न वक्तुं शक्नुमः. नीलरूपस्य अपि व्याप्यवृत्तित्वम् अस्ति इति न वक्तुं शक्नुमः.
अस्तु,
यतोहि तत्र श्वेतरूपमपि अस्ति, नीलरूपमपि अस्ति खलु. तर्हि श्वेतरूपम् एकस्मिन् भागे अस्ति, यत्र नीलरूपम् अस्ति तत्र श्वेतरूपस्य अभावः वर्तते.
अभावः वर्तते,
तर्हि
आं महोदय,
स्वाभावः तत्र स्वाधिकरणे भवति चेत् तत्र अव्याप्यवृत्तिः. तर्हि अव्याप्यवृत्तिः आगतः इति कृत्वा तत्र ते न अङ्गीकुर्वन्ति. तत्र
इत्युक्ते तत्र महोदय अत्र प्राचीनाः रूपस्य व्याप्यवृत्तित्वं मनसि कृत्वा इति
नाम तेषां चिन्तनं किमर्थं चित्ररूपमिति तत्र तैः स्वीकृतः इत्युक्ते तत्र यदि तत्र पटे तत्र रक्तवर्णः अपि अस्ति, पीतवर्णः अस्ति, तत्र रक्तवर्णः पटः इति न वक्तुं शक्नुमः, पीतवर्णपटः इति न वक्तुं शक्नुमः. किन्तु ते चिन्तयन्ति तत्र रूपं तु सर्वत्र एकमेव रूपं भवेत् इति
भवेत् इति. अतः ते निर्मितवन्तः तत्र चित्ररूपम् इति सप्तमरूपं निर्मितवन्तः
अथवा तैः अङ्गीकर्तव्यम् अभवत्.
अङ्गीकर्तव्यं
तत्र समस्या भवति. अतः तत्र ते चिन्तितवन्तः रूपम् अव्याप्यवृत्तिगुणः अस्ति इति तेषां निर्धारः आसीत्. नाम तस्मिन् विषये समस्या एव नास्ति, संशयः नास्ति, एतादृशः एव अस्ति एषः गुणः इति ते चिन्तितवन्तः.
हा, इत्युक्ते महोदय तत्र रक्तवर्णः, पीतवर्णः वा अपि च हरितवर्णः, ते सर्वाणि व्याप्यवृत्तित्वेन एव भवन्ति इति स्वीकृत्य तत्र चित्ररूपम् इति स्वीकरणीयं भवति तैः
इति. अतः एव
इत्युक्ते सर्वत्र अस्ति इति.
अतः नव्याः
वदन्ति, ते वदन्ति संयोगस्य अव्याप्यवृत्तित्वं भवति इति.
संयोगस्य अव्याप्यवृत्तित्वं भवति यथा
तथा रूपस्य अपि अव्याप्यवृत्तित्वं भवतु, न कोऽपि न कापि हानिः. इत्युक्ते तत्र भवतु नाम तत्र अव्याप्यवृत्तित्वम् इति स्वीकरणेन कोऽपि क्लेशः नास्ति. अपि च यतोहि तत्र इति चित्ररूपम् अनङ्गीकृत्य भिन्नभिन्नरूपाणि भवन्ति इति अङ्गीकृतवन्तः. अनेन किं नूतनचित्ररूपं न अपेक्षितम्. ते वदन्ति तत्र किमर्थं चित्ररूपम् इति स्वीकृत्य व्याप्यवृत्तित्वं वदनीयं. तत्र भिन्नरूपाणि भवेत् ते कः क्लेशः तत्र इति. भिन्नरूपाणि भवेत् अपि च तत्र
एकस्मिन् अधिकरणे भिन्नरूपाणि
भवन्ति
सन्ति इति स्वीकुर्मः. तेन न कापि हानिः. नाम तत्र यदि रूपस्य व्याप्यवृत्तित्वम् एव भवति, अव्याप्यवृत्तित्वं न भवति इति तादृशचिन्तनेन लाभः भवति चेत् स्वीकुर्मः. यदि अथवा तत्र यदि तत्र अव्याप्यवृत्तित्वम् अस्ति न इति तेन तादृशस्वीकारेण यदि कुत्रापि समस्या भवति चेत् मास्तु, किन्तु कुत्रापि क्लेशः नास्ति, अव्याप्यवृत्तित्वं रूपम् अव्याप्यवृत्तिगुणः इति यदि स्वीकुर्मः तेन कुत्रापि तत्र हानिः नास्ति, अपि लाघवमस्ति, नूतन नाम सप्तविधरूपम् इति किमर्थं स्वीकरणीयं, सप्तमं किमर्थं स्वीकरणीयं, षड् रूपाणि एव सन्ति इति तेन पर्याप्तं भवति.
नाम इत्युक्ते तेषां चिन्तनं तत्र किमर्थं नूतनस्य अंशस्य किं
तत्र यत् यत् न नाम यस्य आवश्यकता नास्ति
नास्ति अपि यत् नास्ति एव तत्र तस्य किमर्थं
तत्र लाघवं तत्र
उत्पत्ति
तत्र ओकेम्स् रेजर् इति वदन्ति, नाम टेक् वाट् एवर् इस् रियलि नेसरि, डोण्ट् टेक् एनिथिङ्ग् इट्स् नाट् नेसरि. नाम किमपि तत्र कर्तुम् इच्छामः यस्य आवश्यकता अस्ति तदेव तस्य एव स्वीकारः भवेत्, यस्य आवश्यकता नास्ति तस्य स्वीकारणे कः प्रयोगः कः उपयोगः खलु. अतः तत्र सप्तमस्य सप्तमस्य आवश्यकता एव नास्ति, त्यजामः, मास्तु, लाघवमस्ति, षड् रूपाणि एव सन्ति इति. अतः नूतनचित्ररूपस्य अपेक्षा तद् अपेक्षितं नास्ति, तस्य अपेक्षा मास्तु इति आगतम् इति अस्ति. तर्हि तत्र धन्यवादः भगिनि. अतः तत्र
धन्यवादः महोदय. तत्र नव्यनैयायिकाः किं तत्र तन्तुभ्यः भिन्नं पठे पृथक् रूपं न उत्पद्यते न अपेक्षते किम् उक्तव तत्र ते वदन्ति वा महोदय तन्तुषु एव रूपं भवति न तु पठे इति.
न न न ते न वदन्ति, ते वदन्ति
ते न वदन्ति खलु.
न न ते एतदेव वदन्ति यतः तत्र कपिसंयोगः तत्र अग्रदेशः अस्तु, तत्र कपिसंयोगस्य उदाहरणं स्वीकुर्मः. कपिः वृक्षे अस्ति खलु, तर्हि तत्र कपिसंयोगः वयं किम् उक्तवन्तः अग्रदेशे अस्ति, मूलदेशे नास्ति खलु. मूलदेशः अग्रदेशः तत्र अवयवः खलु, अग्रदेशः अपि अवयवः, मूलदेशः अपि अवयवः अस्ति वृक्षस्य, वृक्षः अस्ति अवयवी. किन्तु तत्र संयोगः केवलं तत्र कपिसंयोगः केवलम् अग्रदेशे अस्ति इति वदामः वा, न, कपिसंयोगः अग्रदेशे अपि अस्ति, वृक्षे अपि अस्ति. तर्हि अवयवे अस्ति कपिसंयोगः, अवयविनी अपि अस्ति संयोगः खलु. कपिसंयोगः वृक्षे अस्ति, यद्यपि वृक्षस्य एकभागे अस्ति किन्तु वृक्षे तु अस्ति खलु इति ते वदन्ति कपिसंयोगः.
सत्यं.
तथैव यदि तत्र पटः अस्ति, पटः अस्ति अवयवी, तत्र तन्तुषु तत्र रक्तवर्णतन्तवः सन्ति, नीलवर्णतन्तवः सन्ति, नीलवर्णवर्णः तन्तुषु अवयवेषु वर्तते नीलरूपं, यथा कपिसंयोगः अवयवेषु वर्तते किन्तु तद् वृक्षे अपि वर्तते, तथैव नीलरूपं तन्तुषु वर्तते पटे अपि वर्तते,
पटे अपि भासते एव इति.
भासते. अन्य अवयवे तत्र रक्तवर्णः अस्ति, अन्येषु अवयवेषु रक्तवर्णः अस्ति, सः रक्तवर्णः तन्तुषु अवयवेषु अपि भासते, अवयविनी पटे अपि भासते. तर्हि
अतः
केवलम् अवयवेषु अस्ति इति ते न अङ्गीकुर्वन्ति, रूपं तत्र अवयवेषु अपि अस्ति, अवयविनी अपि अस्ति रूपं.
यतोहि तत्र अवयविनी न भवति एव अवयवैः विना, अतः तत्र सः प्रश्नः एव
नाम पश्यामः नाम तत्र नीलरूपं घटे अस्ति चेत् तस्य कारणं किम् इति अग्रे द्रक्ष्यामः. नाम तत्र नीलरूपं घटे अस्ति, तत्र कपाले नीलरूपम् अस्ति, कपाले नीलरूपम् अस्ति इति कृत्वा एव नीलरूपं घटे वर्तते. अतः कपाले विद्यमाननीलरूपम् एव घटे विद्यमाननीलरूपं प्रति कारणं भवति इति एतत् अग्रे भवति. अतः तत्र तन्तुषु यद्रूपम् अस्ति तद् कारणम् अस्ति, यत् पटे यद् वर्णम् अस्ति तस्य कारणं, तं प्रति कारणं, तत् प्रति कारणम्. अतः नीलरूपं तन्तुषु वर्तते, नीलरूपं पटे अपि वर्तते. नीलरूपं तत्र रक्तवर्णः तन्तुषु वर्तते, रक्तवर्णः पटे अपि वर्तते. यदि तत्र तन्तुषु कुत्रचित् तत्र केषुचित् तन्तुषु तत्र नीलरूपम् अस्ति, केषुचित् रक्तवर्णः अस्ति, तर्हि पटे नीलरूपमपि अस्ति, रक्तवर्णः अपि अस्ति इति ते चिन्तय ते वदन्ति. अपि तत्र यतोहि तत्र व्याप्यवृत्तित्वम् इति न अङ्गीकृतं, तर्हि एकस्मिन् भागे नीलरूपम् अस्ति, अन्यस्मिन् भागे रक्तरूपम् अस्ति, का हानिः इति ते वदन्ति.
आं महोदय,
समीचीनं वा भगिनि?
समीचीनं, तत्र केवलं व्यत्यासः कः इति चिन्तितवती, यतोहि तत्र तन्तव तन्तुभिः विना पटः एव न भवति. अतः प्राचीनः मत प्राचीनानां मतं न अवगतं.
पटः भासते, पटे यानि रूपाणि तन्तुषु अस्ति तानि रूपाणि अपि पटे भासन्ते. अतः तत्र पटे अपि रूपम् अस्ति एव, किन्तु पटे यद् रूपम् अस्ति तत् तत् व्याप्यवृत्तिरूपं नास्ति, अव्याप्यवृत्तिरूपमेव अस्ति. कुत्रचित् व्याप्यवृत्तिरूपं भवति, यत्र सर्वेषु अवयवेषु एकमेव रूपम् अस्ति तत्र व्याप्यवृत्तिरूपं भासते पटे. सर्वत्र नीलरूपमेव अस्ति चेत् अस्तु, तत्र व्याप्यवृत्तित्व नीलरूपं भासते. किन्तु कुत्रचित् व्याप्यवृत्तित्व नीलरूपं भासते इति कृत्वा सर्वत्र व्याप्यवृत्तित्वम् अस्ति इति अङ्गीकर्तव्यं नास्ति.
तत्र नव्यनैयायिकानां मतमेव सम्यक् इति भासते.
तत्र किन्तु पश्यतु तत्र तेषां तत्र कीदृशचिन्तनम् अस्ति, तत्र गभीरचिन्तनं.
तदेव तदेव चिन्तितवती किमर्थं तथा उक्तम् इति, चिन्तनीयमस्ति महोदय, इतोपि चिन्तनीयमस्ति.
समीचीनम्, अस्तु. तर्हि अतः तत्र एतेन तत्र करपत्रस्य पाठः समाप्तः. इदानीं तत्र अग्रे तत्र विद्याधरी पुस्तकं गच्छामः. तर्हि तत्र एकः तत्र कुत्र अस्ति एतत् एकनिमिषः, इदानीं तत्र विद्याधरीपुस्तकं
आचार्य यस्मिन् पटे मिश्रितरूपाणि भवन्ति, यस्मिन् पटे मिश्रितरूपाणि भवन्ति तस्य पटस्य प्रत्यक्षं केन कारणेन भवन्ति इति नव्यानां मतं
नाम यत् रूपं तत्र तत्तुषु वर्तते तद् रूपं तत्र पटे अपि वर्तते. नाम यत्र तत्र तन्तुषु कुत्रचित् नीलरूपम् अस्ति चेत् एतत् नीलरूपमपि पटे भासते. तन्तुषु कुत्रचित् केषुचित् तन्तुषु तत्र रक्तरूपम् अस्ति चेत् एतत् रक्तरूपमपि पटे भासते.
आं, तर्हि तत्तद् अवयवेषु तद्
रूपं, हा, अतः एव तत्तद् अवयवेषु रूपं यद्यद् रूपम् अस्ति तत्तद् रूपं पटे भासते इति. हा अतः तत्र सर्वाणि रूपाणि भासन्ते, तत्र केवलम् अवयवेषु एव सन्ति इति न, सर्वाणि रूपाणि पटे अपि अवयविनी अपि सन्ति इति इति अस्ति. अस्तु समीचीनम्. अस्तु
रूपस्य अव्याप्तम् इति स्वीकृतं खलु,
अव्याप्यवृत्ति, अव्याप्यवृत्तित्वं तस्य आवश्यकता नास्ति, एकमेव रूपं सर्वत्र भवेत्, द्रव्ये सर्वत्र भवेत् इति तस्य आवश्यकता नास्ति. इति अस्तु. तर्हि इदानीं विमला भगिनी नमस्कारः, न दृष्टवान् भवती आगतवती इति. नमस्कारः.
नमस्कारः महोदय, विलम्बः जातः.
हा चिन्ता मास्तु भगिनि, चिन्ता मास्तु. अस्तु इदानीं तत्र पद्मा भगिनी पठितुम् इच्छति वा भगिनि अद्य? तत्र प्रायशः तत्र एतत् सर्वम् एतस्य वाक्यस्य अवगमनं जातमिति मन्ये, तत्र एतदेव तत्र पाठे अपि तत्र करपत्रे अपि तस्य चर्चा आसीत्, अतः तत्र इदानीं तत्र इदं च इति ततः ततः आरभ्य
इदं च अव्याप्यवृत्तित्व निर्वाहकम् इति शास्त्रे प्रसिद्धं, तथा च अग्र अवच्छेदेन वृक्षे कपिः कपिसंयोगः वा वर्तते, मूल अवच्छेदेन वृक्षे कपेः अभावः कपिसंयोग अभावः वा वर्तते, एवं च कपिसंयोगः वृक्षे अव्याप्यवृत्तिः इति वाक्यस्य वृक्षे कपि संयोगः वर्तते तद् अभावः अपि वर्तते इत्यर्थः, तुल्ययुक्तया कपिसंयोग अभावस्य अपि अव्याप्यवृत्तित्वं समर्थनीयम्.
प्रायः तत्र सरलमेव अस्ति खलु.
आम्, इदं च अव्याप्यवृत्तित्वनिर्वाहकम् इति शास्त्रे प्रसिद्धम्, अव्याप्यवृत्तित्वम् इति वयं पूर्वं पठितवन्तः खलु, तद् शास्त्रे प्रसिद्धम् इति उक्तवन्तः वदति.
हा सत्यं सत्यं, नाम तत्र निर्वाहकं नाम तत्र यत् वयं वक्तुम् इच्छामः तद् अव्याप्यवृत्तित्वम् इति तत्र इति रूपेण शास्त्रे प्रसिद्धमस्ति.
तथा च अग्र अवच्छेदेन वृक्षे कपिः संयोगः वा वर्तते, कपिः वृक्षे वर्तते, कपिसंयोगः अपि वृक्षे वर्तते, अवच्छेदः तु अग्रभागः.
समीचीनं.
मूल अवच्छेदेन वृक्षे कपेः अभावः कपिसंयोग अभावः वा वर्तते, तथा एव मूलभागे कपिसंयोग अभावः वर्तते अथवा कपेः अभावः वर्तते, तत्र अवच्छेदः अवच्छेदः तु तत्र मूलभागः एव अवच्छेदकः. एवं च कपिसंयोगः वृक्षे अव्याप्यवृत्तिः इति वाक्यस्य वृक्षे कपिसंयोगः वर्तते तद् अभावः अपि वर्तते इत्यर्थः. अतः कपिसंयोगः वृक्षे वर्तते, कपिसंयोगस्य अभावः अपि वृक्षे वर्तते इति ज्ञायते, तदेव
तत्र मूले वर्तते
वृक्षे
संयोगस्य विशेषणम् अस्ति, कपिसंयोगः कीदृशः अव्याप्यवृत्तिः अस्ति, नाम वृक्षे कुत्रचित् अस्ति कुत्रचित् तस्य अभावः अस्ति,
कुत्रचित् कपिसंयोगस्य सद्भावः अस्ति कुत्रचित् कपिसंयोगस्य अभावः अस्ति, अतः कपिसंयोगः वृक्षे अव्याप्य वृत्तिः
इति वदामः.
तुल्ययुक्तया कपिसंयोग अभावस्यापि अव्याप्यवृत्तित्वं समर्थनीयं तादृशमेव कपिसंयोग अभावस्य तत्र अव्याप्यवृत्तित्वं तदपि अस्माभिः समर्थनीयम्
नाम तत्र तथैव यथा कपिसंयोगस्य अव्याप्यवृत्तित्वम् अस्ति तथैव कपिसंयोग अभावस्य अपि निरूपणीयं नाम एकस्मिन् देशे अस्ति अन्यस्मिन् देशे नास्ति अपि तत्र अव्याप्यवृत्तित्वं तस्य निर्वाहकं निर्वाहकं नाम केन केन प्रदर्शयितुं शक्नुमः नाम कस्य तत्र उत्तरदायित्वम् अस्ति अव्याप्यवृत्तित्वं प्रदर्शनं तस्य प्रदर्शनं केन भवति इत्युक्ते अवच्छेदेन भवति तत्र अवच्छेदकम् अवच्छेदन मूलदेश अवच्छेदेन तत्र अव्याप्यवृत्तित्वं साधितवन्तः तत्र अवच्छेदरूपेण एव तत्र अवच्छेदकम् एव तत्र निर्वाहकम् अस्ति अव्याप्यवृत्तित्वस्य इति एतत् सर्वं वयं करपत्रे पठितवन्तः तत्र अस्तु समीचीनं भगिनि तत्र प्रायशः तत्र सरलमेव अस्ति अतः किमपि अत्र नूतनं नास्ति पूर्वं यदा वयं यदि पठितवन्तः प्रायशः तत्र किमस्ति इति प्रायशः क्लेशः भवेत् किन्तु इदानीं करपत्रस्य पठनानन्तरं प्रायशः सरलम् अस्ति इति मूल्य हा अस्तु समीचीनं धन्यवादः भगिनी अस्तु अग्रे विमला भगिनी अग्रे पठितुम् इच्छति वा
महोदय अत्र अग्रे वृक्षे कपिसंयोगः इति वाक्ये अपि अग्रपद उत्तरसप्तम्याः अवच्छेदकसमर्थः निरूपित पूर्वं पूर्णतया पठित्वा वाक्यस्य वदामि किं वृक्षपद उत्तरसप्तम्याः अधिकरणत्वम् अर्थः तथा च अग्र अवच्छिन्न वृक्षनिष्ठ अधिकरणता निरूपित आधेयताश्रयः कपिसंयोगः इति प्रतीयते मूले वृक्षे कपिसंयोग अभावः इति वाक्यादपि मूल अवच्छिन्न वृक्षनिष्ठ अधिकरणतानिरूपित आधेयताश्रयः कपिसंयोग अभावः इति बोधो भवति एवञ्च सर्वजनसिद्धं यत् अव्याप्यवृत्तित्वं तेन एव चित्ररूपस्थले अपि निर्वाहः शक्यः कर्तुम् अत्र अधिकरणता आधेयता इत्यस्य निरूपणमपि भवति अधिकरणता अस्ति वृक्षे वृक्षस्य अग्रस्य तस्य अवच्छेदक अस्ति अग्रभागः अग्रे इति उक्तत्वात् अग्रस्य सप्तमीनिर्देशेन अग्रभागः अवच्छेदकः भवति वृक्षस्य वृक्षे एकनिमिषं महोदय अवच्छेदकत्वम् अर्थ अग्रे वृक्षे वृक्ष उत्तर वृक्षपद उत्तरसप्तम्याः अधिकरण अस्तु अग्रे अग्रभागः अवच्छेदकः वृक्षः अधिकरणः तर्हि आधेयता अस्ति कपिसंयोगे यदि वयम् अग्रभागस्य हा कपिसंयोग आधेयः अधिकरणतायाः आधेयः आधेयतायाः अधिकरणमस्ति वृक्षः वृक्षस्य तस्य सर्वस्य अवच्छेदकमस्ति अग्रभागः
भगिनि तत्र निमिषः भगिनि तत्र तत्र अग्रे वृक्षे कपिसंयोगः खलु इति वाक्ये तत्र अग्रपदोत्तरसप्तम्याः नाम अग्रः इति पदं यदस्ति
तस्य सप्तमी निर्देशः
तत्र सप्तमी इति यदस्ति तत् तत्र सप्तमी विभक्तेः अर्थः अस्ति अवच्छेदकत्वम्
इति
समीचीनं इदानीं
वृक्षपद उत्तरसप्तम्याः अर्थमस्ति अधिकरणमिति
अधिकरणत्वम् इति नाम तत्र एव अस्ति कपिसंयोगः कुत्र अस्ति वृक्षे अस्ति कपिसंयोगः वृक्षे अस्ति अतः कपिसंयोगस्य अधिकरणम् अस्ति वृक्षः कपिसंयोगस्य अवच्छेदकः अस्ति अग्रदेशः
अग्रभागः
अतः एव अग्रभागः अवच्छेदकः वृक्ष इति अधिकरणम्
अधिकरणः अस्ति
अतः
तथा च अग्र अवच्छिन्न वृक्षनिष्ठ अधिकरणता निरूपित आधेयताश्रयः कपिसंयोगः इति प्रतीयते तदेव निरूपितं पुनः कपिसंयोग कपिसंयोगे कपिसंयोगे आधेयता अस्ति तस्य अधिकरणमस्ति वृक्षः अपि च अवच्छेदकः अस्ति अग्रभागः
अस्ति
कपिसंयोगे
निरूपित
अधिकरणता
तस्य अधिकरणमस्ति वृक्षः
समीचीनं मूले वृक्षे कपिसंयोगस्य अभावः अस्ति तर्हि वाक्यरूपेण वदामः चेत् अत्र
मूले इति तस्य अर्थः कः
अवच्छेदकं भवति मूलस्य मूलभागः अवच्छेदकः भवति वृक्षः तु अधिकरणं भवति अधिकरणं भवति अपि च कपिसंयोगाभावः आधेयता अस्ति तदेव मूल मूल अवच्छिन्न वृक्षनिष्ठ अधिकरणता निरूपित आधेयता आश्रयः कपिसंयोग अभावः इति बोधः भवति एतावत् अभावः अपि अस्ति कपिसंयोगः वर्तते कपिसंयोगस्य अभावः अपि अस्ति इति द्वावपि स्तः तदेव अव्याप्य वृत्तित्वमिति तादृशमेव चित्ररूपस्थले अपि निर्वाहः कर्तुं शक्नुमः यथा यथा उक्तं
यथा पूर्वम् उक्तं नाम
पूर्वमुक्तं
चित्ररूपं नाम तत्र
अव्याप्यवृत्तित्वमिति
हा तेनैव चित्ररूपस्य स्थले अपि निर्वाहः शक्यः कर्तुं हा इति तत्र नाम एकमेव रूपं नास्ति इति तत्र यद् वयं वक्तुम् इच्छामः तत्र प्राचीनाः यद् वक्तुम् इच्छन्ति तत्र ते वदन्ति एतत् तथैव तत्र यदि कुर्मः तत्र अव्याप्य वृत्तित्वम् आगतः भवति अतः तत्र श्वेतरूपमपि मास्तु नीलरूपमपि मास्तु चित्ररूपम् इति स्वीकुर्मः इति ते उक्तवन्तः किन्तु नव्यानां मतं तु भिन्नम् इति वयं जानीमः अस्तु तर्हि अस्तु तत्र समयोपि जातः किन्तु समीचीनमस्ति इदानीं तत्र करपत्रस्य पठनं समाप्तमस्ति अतः अग्रे तत्र इदानीं तत्र अग्रे विद्याधर्यम् अग्रेसर्तुं शक्नुमः तत्र इदानीं तत्र वयं तत्र गुणानां तत्र लक्षणं किं किम् अस्ति इति पठन्तः स्मः इदानीं तत्र रूपस्य लक्षणस्य किञ्चित् एव अस्ति तस्य अनन्तरं रसादिलक्षणविभागाः इति तत् तत्सर्वम् अग्रे पठामः तदा एव वयं तत्र समवायिकारणम् असमवायिकारणम् एतस्य पुनः तत्र तस्य पुनः तत्र तस्य चर्चा भवति अग्रे अस्तु तर्हि समीचीनमस्ति
महोदय वर्गः सार्ध अष्टवादने न भवति किं सार्धसप्तवादने किम्
आं भगिनि हा यतोहि तत्र भारतदेशे सर्वदा तत्र षड् वादने भवेत् इति
अस्तु
हा यतोहि तत्र यदि तत्र तत्र सप्तवादन भवति चेत् तत्र क्लेशः भवति इति कृत्वा
अस्तु अस्तु मया किञ्चित् भ्रमः अभवत् तेन तस्मादेव विलम्बेन आगतवती
भगिनि अहं तत्र गतवर्गे नाम दीपावली न तस्य तस्मात् प्राक् प्राक् सप्ताहे अहं चिन्तितवान् तस्मिन्नेव दिने तत्र समयस्य परिवर्तनं जातम् इति कृत्वा तस्मिन् दिने मास्तु यतोहि तत्र हा क्लेशः भवति अतः तस्मिन् दिने वर्गः मास्तु इति चिन्तितवान् किन्तु इदानीं तत्र सार्धसप्तवादनतः
नववादनपर्यन्तं धन्यवादः
अमेरिकादेशे अस्तु भगिनि धन्यवादः सर्वेषां धन्यवादः नमस्कारः बहु
धन्यवादः
अग्रिमे सप्ताहे
धन्यवादः
अग्रे सरामः धन्यवादः
धन्यवादः महोदय